Meeting has started. नमस्ते महोदय. ॐ सहनावतु सहनौं भुनक्तु सह वीर्यं करवावहै तेजस्विनावधीतमस्तु मा विद्विषावहै. ॐ शान्तिश्शान्तिश्शान्तिः. त्रिमुनिवन्दना. येनाक्षरसमाम्नायम् अधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः. येन धौताग्रः पुंसां विमलैः शब्दवारिभिः तमश्चाज्ञानजं भिन्नं तस्मै पाणिनये नमः. वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम्. हरिः ओम्. ॐ श्रीगुरुभ्यो नमः. हरिः ओम्. नमस्ते महोदय. नमस्ते सर्वेभ्यः.
हरिः ओम्. सर्वेभ्यो नमस्कारः. व्याकरणवर्गे सर्वेषां स्वागतम्. अस्माकं प्रवर्तमानं करपत्रमस्ति अष्टाध्यायां सूत्राणां बलाबलं. तस्मिन् करपत्रे वयम् अन्तरङ्गत्वं नाम किम्, अन्तरङ्गम् इति विषयं स्वीकृत्य अध्ययनं कुर्मः. गतवर्गे वयं तत्र अन्तरङ्गत्वम् अन्तरङ्गस्य अन्तरङ्गं बहुविधम्, अतः महान् प्रपञ्चः अत्र प्रकारद्वयं प्रदर्श्यते. अस्माकं करपत्रे तत्र द्विप्रकारकम् अन्तरङ्गत्वं प्रदर्श्यते. तेभ्यः प्रथमविधम् अन्तरङ्गत्वम् अस्ति पूर्वोपस्थितनिमित्तकम्. पूर्वोपस्थितनिमित्तकम् पूर्व उपस्थितनिमित्तकम् अन्तरङ्गम् इति बिन्दुं स्वीकृत्य वयम् अध्ययनं प्रारब्धवन्तः गतवर्गे. तस्मिन् प्रथमे एकं दृष्टान्तं स्वीकृत्य वर्ण्यते स्वरूपमहोदयेन. दृष्टान्तं किमस्ति? उदाहरणं सिब् इति धातुः, न इति प्रत्ययः, सिब् योगे न इति अवस्थायां तत्र त्रयाणां सूत्राणां प्रसक्तिः वर्तते. प्रथमसूत्रमस्ति लोपो व्यौर्वलि, द्वितीयसूत्रमस्ति चक्षोः सुरनासिके च, तृतीयसूत्रमस्ति सुगन्तलघुपथस्य च. वयं क्रमेण चिन्तनं कुर्मः एतेषां सूत्राणाम् अत्र कथम् एतानि सूत्राणि अत्र कथं प्रसक्तानि सन्ति. तेषु वयं लोपो व्योर्बलि इति सूत्रस्य चिन्तनं गतवर्गे एव समापितवन्तः. अत्र लोपो व्योर्बलि इति सूत्रं किं वदति? बल् प्रत्याहारे परे पूर्वं विद्यमानयोः वकारयकारयोः लोपो भवति. अत्र सि योगे न इति अवस्थायां पूर्वे तु वकारः विद्यते, वकारात् परं नकारः नकारः विद्यते, नकारः बल् प्रत्याहारस्थ वर्णः. अतः यदि लोपो व्योर्बलि इति सूत्र आधारेण अत्र विधानं कुर्मः तर्हि तेन किं भवति? सिब् इत्यस्य अन्ते यः वकारः श्रूयते तस्य लोपः भवति. तर्हि अन्यसूत्रद्वयं चिन्तनं कृत्वा पुनः निर्णयं कुर्मः केन सूत्रेण अत्र कार्यस्य प्राप्तिः भवति, किं कार्यम् अत्र. सूत्रत्रयं तु प्रसक्तं, तेषु किं सूत्रं कस्य सूत्रस्य प्राप्तिः भवति तत् निर्णयं कुर्मः. निर्णय अनन्तरं तेन सूत्रेण एव विधानं कृत्वा तत्र किम् इष्टरूपमस्ति स्योन सिप् योगे न इति कृत्वा स्योन इति शब्दस्य निष्पादनं कुर्मः. तर्हि लोपव्योर्बलि तु स्पष्टमेव. इदानीं चक्षुः सुडुनाशिके च इति सूत्रं पुनः पठित्वा चिन्तनं कृत्वा विचरामः. स्पष्टमिति चिन्तयामि। कोऽपि प्रश्नः वा एतावता? अस्तु, तर्हि तत्सह सुरन्नाशिके च इति सूत्रम् अध्ययनं कुर्मः। सुचिरा भगिनी, भवत्येव
नासिके च षष्ठाध्यायः चतुर्थः पादः नवदश सूत्रं नवदशतं सूत्रं तुक्सहित छकारस्य स्थाने शकारादेशः अपि च वकारस्य स्थाने ऊठ आदेशो भवति। अनुनासिकादि अनुनासिकादि प्रत्यये परे क्वि परे झलादि प्रत्यये च परे छ च व च तयोरितरेतरद्वन्द्वः छो छोः छौ तयोः छोः श च ऊठ च तयोः समाहार द्वन्द्वः षूड् झलां श्रुवन्ते। अष्टमध्याय द्वितीयपादः नव त्रिंशत् तमसूत्रम् इत्यनेन ठकारस्य स्थाने डकारः छोः षष्ठ्यन्तं षूड् प्रथमान्तम् अनुनासिके सप्तम्यन्तं च अव्ययपदम् अनेकपदमिदं सूत्रम् अनुनासिकस्य क्वि झलोः नीति। षष्ठाध्याय चतुर्थपादः पञ्चदश तमसूत्रम् इत्यस्मात् क्वि झलोः इत्यस्य अनुवृत्तिः अङ्गस्य षष्ठाध्याय चतुर्थपादः एकः इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं छोः अङ्गस्य षूड् क्वि झलोः अनुनासिके च। तुक् सहित छकारस्य स्थाने अहं न वक्तुं शक्नोमि महोदय।
अस्तु, चिन्ता नास्ति। अत्र प्रत्येकं वाक्यं स्वीकृत्य चिन्तनं करिष्यामः, तेन स्पष्टता भवति। तर्हि तत्सह सुरन्नासिके च तथा भवत्या पठितं षष्ठाध्याये चतुर्थपादे ऊनविंशतितमसूत्रं सूत्रस्य कः अर्थः? तुक्सहितछकारस्य स्थाने तालव्यसकारादेशः अपि च बकारस्य स्थाने उठ् आदेशः भवति कदा? निमित्तानि भवन्ति अनुनासिकादिप्रत्यये परे चीव् परे झलादिप्रत्यये च परे। अस्तु, अस्मिन् सूत्रे च इति पदमपि पठ्यते। सूत्रस्य किम् अंशद्वयं वर्तते, सूत्रे अंशद्वयं वर्तते, तस्य भागद्वयं कर्तुं शक्नुमः। एकस्मिन् भागे किम् उच्यते? तुक्सहितछकारस्य स्थाने तालव्यसकारादेशः इति अंशे उच्यते, वकारस्य स्थाने उठ् इति आदेशः। उभय आदेशस्य कृते त्रीणि निमित्तानि अपि सूत्रे पठ्यते। साक्षात् सूत्रे तु एकमेव निमित्तं पठ्यते, किम्? अनुनासिका अनुनासिके इति पदेन अनुनासिकादिप्रत्यये परे आदेशद्वयोः विधानं, पुनः अनुवृत्तिरूपेण किं स्वीक्रियते? तत्र अनुनासिकस्य क्यूचलोः नीति इति सूत्रम् षष्ठाध्यायस्य चतुर्थपादस्य पञ्चदशतमसूत्रं, ततः क्यूचलोः इति पदम् अनुवृत्तिरूपेण स्वीक्रियते। अस्तु, असाध्यायी डाट् काम् इति पश्यामः चेत् तत्र नीति इति पदमपि पदस्य अनुवर्तनम् अपि तत्र वर्ण्यते, परन्तु अस्माकं करपत्रे स्वरूप् महोदय केवलं क्यूझलोः इति पदस्य अनुवर्तनम् अत्र वर्ण्यते। वर्णनं करोतु एकमासम् आम् इत्यस्मात् अनुनासिकस्य क्यूझलोः नीति इत्यस्मात् क्यूझलोः इत्यस्य अनुवृत्तिः तावदेव, केवलं क्यूझलोः इत्यस्य अनुवृत्तिः अस्माकं करपत्रे दीयते। तत्र नीति इति पदस्य अनुवर्तनम् अस्ति, तत् त्यजामः, अस्माकं करपत्रे यत्किमपि अस्ति तस्य एव चिन्तनं करिष्यामि तावत् खलु। तर्हि क्यूशलोः नाम तत्र क्यूशलोः इति किं षष्टिदिवसनान्तं रूपं क्षमतां सप्तमदिवसनान्तं रूपम् अस्तु। तर्हि तेन कः अर्थः भवति चुक्सहितछकारस्य स्थाने चक्षः इति यत् श्रूयते सूत्रे तत्र चकार छकार तस्मिन् तुक् इत्यस्य तकार परे छकार तकारपरे छकारस्य विद्यमाने स्तोः स्तूना स्तुः इत्यनेन तत्र तकारस्य स्थाने चकार भवति तेन च छ इति लभ्यते पुनः वकार च छ इति तयोः एकं समुदायं स्वीक्रियते बकार इति भिन्नसमुदाय तेन समुदायद्वयस्य ग्रहणेन चक्ष्वः इति द्विवचनान्तं चक्षोः षष्ठीद्विवचनान्तं रूपस्य ग्रहणं चक्षोः स्थाने तेन किं तुक्सहितछकारस्य स्थाने पुनः वकारस्य स्थाने सुड् सुड् इति तत्र सुट् सकारः तालव्यसकारः पुनः उठ् उठ् इति आदेशः सकार उठ् तयोः मेलनेन सुड् सुठ् इति निर्मीयते ठकारस्य धलां जस्वन्ति इति सूत्रेण जस्त्व भूत्वा ठकारस्थाने ठकारः आयाति अतः सूत्रे सुड् इति श्रूयते। तदा अनुनासिके अनुनासिकादिप्रत्यये परे पुनः अनुवर्तनं कृत्वा क्यूशलोः इति पदं स्वीकुर्मः तस्मिन् पुनः पदद्वयं निर्दिश्यते क्यू इति पदं पुनः झल् इति पदं निर्दिश्यते तर्हि क्यू प्रत्यये परे छलादिप्रत्यये चक्षुः सुडनुनासिके च सूत्रस्य भागद्वयं वर्तते एतस्मिन् भागे तुक् सहितछकारस्य स्थाने तालव्यसकारादेशः भवति तदा भवति विधानस्य कृते निमित्तत्रयं वर्ण्यते निर्दिश्यते निमित्तत्रयं निर्दिश्यते तानि निमित्तानि कानि अनुनासिकादिप्रत्ययः अथवा क्यूप्रत्ययः अथवा छलादिप्रत्ययः अनुनासिकादिप्रत्ययः इति वदामः चेत् तादृशः प्रत्ययः यस्य आदौ कश्चन अनुनासिकवर्णस्य उच्चारणं भवेत् छलादिप्रत्ययः वदामः चेत् तादृशः प्रत्ययः यस्य आदौ कश्चन छल् वर्णः उच्चार्यते एतत् सर्वं तु स्पष्टं वयं जानीमः एव तत्र सन्देहः नास्ति। तर्हि एकस्मिन् अंशे सूत्रे किमुच्यते तुक्सहितछकारस्य स्थाने तालव्यसकारादेशः भवति अन्यस्मिन् अंशे उच्यते बकारस्य स्थाने उट् इति आदेशः भवति तदा भवति परे यदि अनुनासिकप्रत्ययः कश्चन अनुनासिकप्रत्ययः विद्यते अथवा क्यू इति प्रत्ययः विद्यते अथवा छल् छलादि कश्चन छलादिप्रत्ययः विद्यते। इदानीम् अस्माकं सविधे यत् उदाहरणमस्ति सिब् योगे न तत्र सिब् इति बकारान्तम् अङ्गम् अन्ते बकारः विद्यते बकारस्य परे यः न इति अस्ति सः अनुनासिकादिप्रत्ययः सः बकारान्तस्य अङ्गस्य परे कश्चन अनुनासिकादिप्रत्ययस्य विद्यमाने अत्र चक्षोः सुडनुनासिके च इति सूत्रं प्रसक्तम् स्पष्टमिति चिन्तयामि। रामचन्द्रन् कृते तत्र सिब् योगे न इति यत् उदाहरणम् अस्माकं सविधे अस्ति तत्र चक्षोः सुडुर्नासिके च इति सूत्रं प्रसक्तं तत् प्रतिपादय प्रयत्नं करो सरलं करो सूत्रस्य अर्थम् एकवारं पठतु तेन इतोपि स्पष्टं
चोः शु अनुनासिके च षष्ठाध्यायः चतुर्थपादः नवदशतमं सूत्रं तुक् सहितचकारस्य स्थाने चकारादेशः अपि च वकारस्य स्थाने ऊट् आदेशः भवति अनुनासिकादिप्रत्यये परे क्वि परे झलादिप्रत्यये च परे इच्छ च इव च तयोः इतरेतरद्वन्द्वः क्षोः तयोः
एकनिमिषं महोदय श्रूयते वा महोदय हरि ओम्
जलां दशोऽन्ते अष्टमाध्यायः द्वितीयपादः नवत्रिंशत् तमसूत्रम् इत्यनेन ठकारस्य स्थाने डकारः श्वोः षष्ट्यन्तं शूट् प्रथमान्तम् अनुनासिके सप्तम्यन्तं च अव्ययं पदम् अनेकपदम् इदं सूत्रम् अनुनासिकस्य क्विज्झलोः ज्ञिति षष्ठाध्यायः चतुर्थपादः पञ्चदशतमं सूत्रम् इत्यस्मात् क्विझलोः इत्यस्य अनुवृत्तिः अङ्गस्य षष्ठाध्यायः चतुर्थपादः प्रथमं सूत्रम् इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं श्वोः अङ्गस्य शूट् क्विझलोः अनुनासिके च अत्र श्वोः इति समुदायः तत्र चकारस्य शकारादेशः भवति एवम् अकारस्य ऊठ् आदेशः भवति अनुनासिके अनुनासिके परे प्रत्यये परे अथवा क्वि प्रत्यये परे अथवा जलादिप्रत्यये परे अनुनासिकादिप्रत्यये परे क्वि परे जलादि प्रत्यये परे चकारस्य शकारादेशः वकारस्य ऊट् आदेशः भवति तत्र सूत्रे शू ड इति अस्ति ड् तत् जलां चषोन्ते इति सूत्रेण जस् सन्धिः अतः शू ऊठ् तत्र ऊड् इति अस्ति तत्र अनुवृत्तिसहितसूत्रं छोः अङ्गस्य शूट् क्वि झलोः अनुनासिके च इति कथम् इति चेत् अनुनासिकस्य क्वि झलोः ङिति इति सूत्रम् अनन्तरं क्वि झलोः इति ततः तत्र छोः शूट् अनुनासिके च तत्र एतत् सूत्रं पूर्वतनसूत्रं अनन्तरं तद् तस्य अनुवर्तनमस्ति क्विझलोः इति. अनन्तरम् एतस्य अधिकारसूत्रमस्ति अङ्गस्य इति. अतः अनुवृत्तिसूत्रं श्वोः अङ्गस्य शूट् क्विझलोः अनुनासिके च इति अनुवृत्तिसहितसूत्रम्. अत्र महोदय
आं महोदय श्रूयते तावत् एव वा मम सरलप्रश्नः आसीत् तत् अस्माकं सविधे यत् उदाहरणमस्ति
स्पष्टं न ज्ञातं तत्र उदाहरणे एतस्य क्रियान्वयनं कथं
तदेव चिन्तनीयं महोदय अस्माकं सविधे यत् उदाहरणम् अस्ति तस्य प्रसङ्गे एतत् सूत्रं कथं प्रसक्तम् तत् चिन्तनं सरलं चिन्तनम् अस्ति तत्र बहु किमपि नास्ति अत्र पश्यतु महोदय अत्र चक्षोः सुडनुनासिके च इति सूत्रे इति एतत् सूत्रम् अङ्गस्य इत्यस्य अधिकारे महर्षिपाणिनिना पठ्यते अत्र अङ्गं कीदृशं भवेत् तत् स्थाने अस्ति स्थाने कीदृशं भवेत् षष्ठ्यन्तं पदं किमस्ति चक्षोः सत्यं चक्षोः इति पदे केषां ग्रहणम् सत्यं चकारेण सह छकारः नाम तुक् आगम कृत्वा अन्ते यत् छकार विद्यमाने यत् अङ्गं लभ्यते तादृशम् अङ्गम् अथवा बकारान्तम् अङ्गम् अस्माकं सविधे किं सीम् इति अस्ति किल बकारान्तम् अङ्गम् आम् इदानीं हा बकारस्य स्थाने ऊठ् इति आदेशः भवति आदेशः किं कः भवति तत् परे अनन्तरं चिन्तनं कुर्मः निमित्तं किम् अस्ति कदा भवति
अनुनासिके परे
अनुनासिके इति उच्चार्यमाणे तस्य को अर्थः
अनुनासिकादिप्रत्यये परे
सत्यं पुनः की प्रत्यये परे झलादि प्रत्यये परे अपि अस्ति तत् अत्र न प्रसक्तं झलन्त न झलादि अत्र अस्माकं सविधे यः प्रत्ययः अस्ति न इति सः कीदृशः प्रत्ययः न इत्यस्य आद्यवर्णः कः नकारः नकारः अनुनासिकवर्णः अथवा झल् वर्णः
अनुनासिकः
सत्यम् अनुनासिकवर्णः झल् प्रत्याहारे तत्र झभै खडधस् जवगडधस् खप छटत चटत कपै सससर् फल् झल् प्रत्याहारे अनुनासिकवर्णानां ग्रहणं नास्ति अत्र पुनः सूत्रे तु अनुनासिकादिप्रत्यये परे झलादिप्रत्यये परे इति स्वातन्त्र्येण तयो उच्चार्यते अतः तत्र सन्देहः न वर्तते यत्किमपि भवतु तर्हि अस्माकं सविधे वकारान्तम् अङ्गमस्ति शीव् इति वकारान्तम् अङ्गमस्ति परे न इति अस्ति तर्हि एतस्य सूत्रस्य प्रसक्तिः अस्ति चक्षः सुडनुनासिके च इति सूत्रस्य प्रसक्तिः अस्ति
अस्ति
अस्ति तेन कार्यं किं भवति
वकारस्य स्थाने मूढ आगमः आदेशः
आदेशः भवति अस्तु तावदेव तावत् अपि अवगच्छामः चेत् पर्याप्तमेव. अस्तु, प्रथमे यत् सूत्रं प्रसक्तमासीत् लोको व्योर्वली, तेन किं भवति, सिव् इत्यस्य अन्त्यवकारस्य लोपः भवति. अस्तु, द्वितीयसूत्रं द्वितीयप्रसक्तं सूत्रम् अस्ति चक्षुः सुडन्मासिके च, तेन किं कार्यं वर्तते, वकारस्य स्थाने ऊट् इति आदेशः. तावत् अस्तु, धन्यवादः महोदय, अग्रे सरामः. तर्हि सूत्रस्य अनन्तरम् एकं दृष्टान्तं दीयते. दृष्टान्तः चुक् सहितचकारस्य स्थाने सकारादेशः, तस्य उदाहरणमस्ति पाप्रस्मि इति पदनिष्पादनसमये तत् भवति. अस्तु, अत्र अनेकानि कार्याणि सन्ति. प्रच् इति धातु, पुनः अत्र द्वित्वं क्रियते, द्वित्वम् अनन्तरं दीर्घादेशः अपि अस्ति. अनेकानि कार्याणि कार्याणाम् अनन्तरं पाप्रस्मि इति रूपं निष्पद्यते एकस्मिन् सोपाने, तत्र चक्षुः सुडोन्मासिके च इति सूत्रस्य विधानम्. सोपानानि मम समीपे सन्ति, अहं यदा एतत् प्रसङ्गस्य अध्ययनं कृतम् आसम् तदा एव स्वरूपमहोदयम् अहं पृष्टवान्, तेन प्रेषितवान्. अस्तु, यदि भवन्तः इच्छन्ति सोपानानि अहं तत्र गणे स्थापयिष्यामि अथवा ईमेल् माध्यमेन प्रेषयिष्यामि. तस्य अत्र किं चर्चा न आवश्यकी इति चिन्तयामि. केन सूत्रेण किं किं परिवर्तनं भवति, यत् अत्र प्रच् योगे यङ् ययोचि इति सूत्रेण यङ् प्रत्ययस्य विकल्पेन लुक्, पुनः प्रच् प्रच् इति धातोः द्वित्वं केन सूत्रेण, संयोः इति सूत्रेण, एतादृशानि सोपानानि सन्ति. पा प्रश्नि इति रूपं कथं निष्पद्यते, निष्पादनं प्रक्रिया अहं किं पोस्ट् अनौन्स्मेण्ट् ईमेल् मध्ये एव प्रेषयिष्यामि. अस्तु, सर्वे तत् पठित्वा अवगन्तुं प्रयत्नं कुर्वन्तु. यदि सन्देहः वर्तते तर्हि अग्रिमवर्गे चिन्तनं करिष्यामः, सन्देहानुगुणं चिन्तनं करिष्यामः. तावत् तर्हि अग्रिमसूत्रं प्रति अग्रेसरामः. अग्रिम अत्र सीप् योगे न इति अवस्थायां यत् अग्रिमसूत्रं प्रसक्तमस्ति तदस्ति पुगन्तलघुपदस्य च इति सूक्ष्माकम् अत्यन्तपरिचितसूत्रं, तथापि अत्र तस्य चिन्तनम् अपेक्षितम्. अस्मिन् प्रसङ्गे तस्य सूत्रस्य कीदृशं चिन्तनं करणीयं, तर्हि सूत्रं पठित्वा एकवारं चिन्तनं करिष्यामः. नेहा भगिनी,
आम्. पुगन्तलघुपदस्य च सप्तमाध्याये तृतीयपादे षडाशीतिसूत्रम्. पुगन्तस्य अङ्गस्य लघुपदस्य च इकः गुणः भवति सार्वधातुके आर्धधातुके च प्रत्यये परे. पुक् अन्ते यस्य तत् पुगन्तम्, लघ्वी उपधा यस्य तत् लघुपदम्. पुगन्तश्च लघुपदश्च तयोः पुगन्तलघुपदं समाहारद्वन्द्वः तस्य पुगन्तलघुपदस्य. पुगन्तलघुपदस्य षष्ठ्यन्तं पदं च अव्ययपदम्, द्विपदम् इदं सूत्रम्. मिदेर्गुणः इत्यस्मात् गुणः इत्यस्य अनुवृत्तिः, सार्वधातुकार्धधातुकयोः इत्यस्य पूर्णावृत्तिः, अङ्गस्य इत्यस्य अधिकारः, इको गुणवृद्धिः इत्यनेन परिभाषासूत्रेण इकः स्थानी भवति यत्र स्थानी न उक्तम्. अनुवृत्तिसहितसूत्रं पुगन्तलघुपदस्य च अङ्गस्य इकः गुणः. तत्र सूत्र अस्ति पुगन्तलघुपदस्य च. पुक् अन्ते अस्ति अथवा उपधा लघु अस्ति. एवं यदि अङ्ग अस्ति पुगन्त अङ्गस्य लघुपदस्य च, इकः गुणः भवति, तत्र यः इक् वर्णः अस्ति उपधायां तत्र इक् वर्णस्य गुणः भवति अथवा पुप् एतत् पदे यः इक् वर्णः अस्ति तस्य गुणः भवति। कदा भवति? यदि परे सार्वधातुक अथवा आर्धधातुक प्रत्ययः अस्ति। तत्र गुणः इति पदस्य अनुवृत्ति मिदेर्गुणः इति सूत्रतः भवति। अपि च सार्वधातुक आर्धधातुक निमित्तकृते सार्वधातुक आर्धधातुकयोः इति सूत्रतः अनुवृत्तिः भवति। अङ्गस्य अधिकारः अस्ति। अपि च अत्र पुगन्तलघुपदस्य च सूत्रे षष्ठ्यन्तं पदं नास्ति। यदा षष्ठ्यन्तं पदं नास्ति तदा इको गुणवृद्धिः इति सूत्रेण इकः स्थाने सूत्रस्य प्रसक्तिः भवति एवम् उक्तम्। अथ एतत् कारणेन पुगन्तलघुपदस्य च अङ्गस्य इकः गुणः एवम् अनुवृत्तिसहितसूत्रम् अस्ति।
पुगन्तलघुपदस्य च इति सूत्रे षष्ठ्यन्तं पदं न उच्यते वा भगिनि?
तदपि षष्ठ्यन्तमस्ति, क्षम्यताम्,
षष्ठ्यन्तमस्ति, तर्हि स्थानीपदम् अस्ति, स्थानीपदम् अस्ति, परन्तु तेन कार्यं कुत्र भवति स्पष्टं न उक्तम्। तत्र संशयः जायते, तत्र परिभाषासूत्राणि आगत्य परिभाषयन्ति। अतः अत्र किं यद्यपि पुगन्तलघुपदस्य इति पदं वर्तते, पुगन्तम् अङ्गं पुनः लघुपदम् अङ्गं, तत्र स्थाने किं भवति तत् स्पष्टं नास्ति। यत्र स्थाने स्पष्टं नास्ति परन्तु सूत्रे गुण अथवा वृद्धि इत्यस्य निर्देशः, तत्र इको गुणवृद्धि इति परिभाषासूत्रम् आगत्य वदति यत् गुणकार्यं प्रसक्तम् अथवा बुद्धिकार्यं प्रसक्तं तत्तु इकः स्थाने भवतु, ततः तत् इको गुणबुद्धि इति परिभाषासूत्र आश्रयेण तत् किम् इकः इति पदं स्वीक्रियते अस्मिन् सूत्रे, अस्मिन् सूत्रे पुगन्तलघुपदस्य च इति सूत्रे। सततया भवता भवत्या चिन्तितं यत्नोपि भवतु, अत्र एतत् सूत्रम् अस्माकं सविधे यत् उदाहरणमस्ति तत्र प्रसक्तं, तत् प्रतिपादयति।
अस्माकम् उदाहरणं सिव् धातु अस्ति। सिव् धातु तत्र सकार इकार वकार, अतः उपधा उपधायां लघु उपधा अस्ति, इक् वर्णः इकारः अस्ति, अतः पुगन्तलघुपदस्य च सूत्रेण तत्र गुणः भवति, अतः गुणस्य अनन्तरम् एकारः भवति, एवं भवितुम् अर्हति।
सत्यं सत्यम्, अस्माकं सविधे सिद् योग्ये न इति उदाहरणं वर्तते। अत्र सिब् इति धातुः अङ्गं, सिब् इति अङ्गं लघुपद अङ्गं वर्तते, पुनः न इति कश्चन अर्धधातुकप्रत्ययः वर्तते। पुनः अन्यत् बिन्दुः अपि अस्ति, पुगन्तलघुपदस्य च इति सूत्रे सार्वधातुकार्धधातुकयोः इति सूत्रं सम्पूर्णतया तस्य अनुवर्तनं भवति। तेन किं भवति? वयं जानीमः धातुभ्यः विधीयमाना प्रत्ययः द्विविधाः, सार्वधातुकम् अथवा अर्धधातुकम्। अतः यदि कश्चन किञ्चन लघुपद अङ्गमस्ति, पुनः यः कोऽपि प्रत्ययः अस्ति, सार्वधातुकं प्रत्ययः भवतु अर्धधातुकं प्रत्ययः भवतु, यः कोऽपि प्रत्ययः विद्यते तस्यां दशायां तत्र उपधायां विद्यमानस्य लघु इक् वर्णस्य स्थाने गुणादेशः भवति। तर्हि अस्माकं पुगन्तलघुपधस्य च इति सूत्रे यत् निमित्तमस्ति तस्मिन् निमित्ते सर्वेषां प्रत्ययानां ग्रहणं भवति सार्वधातुकप्रत्ययानामपि ग्रहणं भवति सर्वेषां सार्वधातुकप्रत्ययानां सर्वेषाम् आर्धधातुकप्रत्ययानां ग्रहणं भवति तर्हि तस्य प्रसङ्गः कथमायाति अत्र चक्षुः सुडनुनासिके च इति सूत्रे निमित्तानि कानि अनुनासिकादिप्रत्ययः फलादिप्रत्ययः पुनः किवि किवि इति कीदृशः प्रत्ययः तत्तु किवि स्वतन्त्रः प्रत्ययः स्वतन्त्रः प्रत्ययः नाम तत्र सन्देहः अस्ति किप्रत्ययस्य स्वभावविषये मम मनसि स्पष्टता नास्ति तत्र अन्वेषणं करिष्यामः कियुक्ति कृत् प्रत्ययः अथवा तदितप्रत्ययः कीदृशः प्रत्ययः यतोहि अत्र अस्माकं किं श्रीयोग्य न इति अवस्थायां कि इत्यस्य प्रसङ्गः एव नास्ति तत् त्यक्त्वा एव चिन्तनं कर्तुं शक्नुमः तर्हि तत्सः सुरनासिके च इति सूत्रे यानि निमित्तानि सन्ति नाम अनुनासिकादिप्रत्ययः जलादिप्रत्ययः ते सर्वे तेषां सर्वेषां ग्रहणं भवति सार्वधातुकत्वेन अथवा अर्धधातुकत्वेन नाम सुगन्तलघुपथस्य च इति सूत्रस्य कार्यक्षेत्रं बृहत् अस्ति चक्षुः सुरन्मासिके च इति सूत्रस्य कार्यक्षेत्रं लघु अस्ति तत् निर्णयं कर्तुं शक्नुमः स्पष्टम् इति चिन्तयामः प्रश्नः अस्तु तर्हि पुनः अन्यत् एकबिन्दुः अपि अत्र चिन्तनीयम् शिप् योगे न इति अवस्थायां लोपो व्योर्वली इत्यस्य विधानं कुर्मः चेत् विधानस्थानं कुत्र अस्ति शिप् इति अङ्गस्य अन्त्यवर्णः बकारस्य लोपः भवति चक्षुः सुडन्नासिके च इति सूत्रेण विधानं कुर्मः चेत् विधानस्थानं समानमस्ति बकारस्य स्थाने उठिति आदेशः किन्तु पुगन्तलघुपथस्य च इति सूत्रेण यदि विधानं कुर्मः तर्हि तत्र विधानस्थानं भिन्नमस्ति तस्य विधानं तु बकारस्य स्थाने विधानं न अपेक्षितम् उपधास्थाने विधानं तेन सूत्रेण पुगन्तलघुपथस्य च इति सूत्रेण उपधास्थाने विधानम् अपेक्षितम् अतः अत्र त्रयाणां सूत्राणां प्रसक्तिः एकस्मिन् समये अस्ति परन्तु एकस्मिन् स्थले नास्ति तदपि मनसि स्वीकृत्य अग्रे चिन्तनं करिष्यामः मनसि स्थापयित्वा अग्रे चिन्तनं करिष्यामः स्पष्टमिति चिन्तयामः अग्रे सरामः अग्रे चन्द्रनाथ भगिनी
महोदय सर्वप्रथमं लोपो व्योर्वलि षष्ठाध्याये प्रथमपादे षट्षष्टितमं सूत्रं चोः शूड् अनुनासिके च षष्ठाध्याये चतुर्थपादे नवदश सूत्रम् इत्यनयोर्मध्ये किं भवति इति द्रष्टव्यं लोपो व्योर्वलि षष्ठाध्याये प्रथमपादे षष्टितमं सूत्रम् इत्यस्य प्राप्तिर्भवति चेत् शोः शूडर्नासिके च षष्ठाध्याये चतुर्थपादे नवदश सूत्रम् इति सूत्रे ऊड् आदेशः न कुत्रापि भविष्यति अतः सूत्रस्य अयं भागः निरवकाशः तदर्थं लोपो व्योर्वलि षष्ठाध्याये प्रथमपादे षष्टितमं सूत्रम् इत्यस्य अपवादः शोः शूड् अनुनासिके च षष्ठाध्याये चतुर्थपादे नवदश सूत्रम् अत्र वयं लोपो व्योर्मलि चोः षूडरनासिके च सूत्रद्वयस्य कर्मक्षेत्रम् अस्ति इति धातु अङ्ग अतः वयं पश्यामः कः सूत्रः कार्यं करोति इति अत्र लोपो व्योर्वलि इत्युक्ते वकार यकारयोः लोपः भवति वलि प्रत्याहारे परे किन्तु चोः षूडरनासिके वदति सुख सहित चकारः वकारः द्वयोः स्थाने शकारः अथवा उड् आदेशः क्रमेण भवति अनुनासिके प्रत्यये अनुनासिकादिप्रत्यये परे अथवा क्यू प्रत्यये परे इति अत्र दत्तमस्ति अत्र सि इति धातुः अन्ते अङ्गे अङ्गस्य अन्ते वकारः तिष्ठति अतः वयं पश्यामः वकारः इति वकारः तिष्ठति वल् प्रत्याहारः शूड् शोको शूड् अनुनासिक इत्र अनुनासिक अल्ल छल् छल् प्रत्याहारे परे एव चोः शूड् अनुनासिक इति सूत्र स्य निमित्तम् अत्र झल् प्रत्याहारः वल् प्रत्याहारे अन्तर्भूतः अस्ति वल् प्रत्याहारे इत्युक्ते यकारं विहाय सर्वे व्यञ्जनाः अत्र भवन्ति झल् प्रत्याहारः अतः वल् प्रत्याहारे अन्तर्भूतः भवति अतः लोभो व्योर्वलि इति कार्यं करोति चेत् चोः शूडरनास्के इति सूत्रस्य प्रसक्तिः नास्ति वयं दृष्टवन्तः वृद्धिरेचि आद्गुणः तत्र आद्गुणः इति बृहत् सूत्रम् अस्ति अत्र एव वृद्धिरेचि अपि निमित्तम् अचिपरे इचिपरे अत्र वयं आद्गुणः इति कार्यं करोति चेत् वृद्धिरेच् इति सूत्रस्य कार्यं कर्तुम् अवसरः नास्ति तादृशमेव अत्रापि लोपो व्योर्वलि इति सूत्रं कार्यं करोति चेत् चोः शूडरनासिके इति सूत्रस्य प्रसक्तिः नास्ति अतः तद् अपवादसी सूत्रम् इति वदति अपवादसूत्रं चोः शूडरनासिके अपवादसूत्रम् अस्ति चेत् अस्मिन् अत्र सूत्रं वदति पूर्वपर नित्य अन्तरङ्ग अपवाद उत्तरोत्तरं विलीयः इति वदति तदनुसृत्य अपवादसूत्रम् एव अत्र अपवादसूत्रस्य प्रसक्तिः प्रथमं भवति तदेव तादृशप्रसङ्गे कार्यं कर्तुं शक्यते तदनुसृत्य अनन्तरं
समीचीनमासिके च द्वयोः सूत्रयोः मध्ये कः सम्बन्धः तत् समीचीनरीत्या चिन्तितवती स्पष्टमिति चिन्तयामि कस्यचित् मनसि कोऽपि प्रश्नः वा नाम तत्स्वः शृणुनासिके च इति सूत्रं लोपो व्यर्वलि इति सूत्रस्य अपवादसूत्रम् अन्य कोऽपि प्रतिपादयितुं प्रयत्नं कर्तुम् इच्छति वा सरलमस्ति
अस्तु सङ्क्षेपेण वदामः चेत् अत्र लोपो व्यर्वलि इति सूत्रे निमित्तमस्ति बल् प्रत्याहारस्थ कश्चन वर्णः चक्षुः सुवर्णनासिके च इति सूत्रे निमित्तानि कानि अनुनासिकादिप्रत्ययः अपि च झलादिप्रत्ययः झल् प्रत्याहारः अपि च अनुनासिकवर्णः ते सर्वे बल् प्रत्याहारे एव पठ्यन्ते स्वीक्रियन्ते गृह्यन्ते
मल् प्रत्याहारः कश्चन बृहत् क्षेत्रं तस्मिन् क्षेत्रे एव झल् प्रत्याहारः आयाति अनुनासिकवर्णः अपि आयान्ति अस्तु अतः अनुनासिकादि प्रत्ययः वदामः चेत् तस्य आद्यवर्णः कश्चन अनुनासिकवर्णः झलादिप्रत्ययः वदामः चेत् तस्य आद्यवर्णः कश्चन झल् प्रत्याहारस्थवर्णः अतः बलि इति उच्यमाने तत्र सर्वे अनुनासिकादिप्रत्ययः सर्वे झलादिप्रत्ययः एव तस्मिन् आयान्ति तस्मिन् स्वीक्रियन्ते गृह्यन्ते अतः चक्षुः शृणुनाति के च इति सूत्रस्य कार्यक्षेत्रं लघु अस्ति क्षुद्रम् अस्ति लोपो व्योर्वल्ली इत्यस्य कार्यक्षेत्रं बृहत् अस्ति लोपो व्योर्वल्ली इति सूत्रस्य कार्यक्षेत्रे एव चक्षुः शृणुनाति के च इत्यस्य कार्यक्षेत्रं सम्पूर्णतया तत् तस्मिन् एव वर्तते तेन कारणेन एव चक्षुः शृणुनाचिके च इति सूत्रम् अपवादसूत्रम् अपवादत्वेन बलवत् यत्र द्वयोः सूत्रयोः मध्ये उत्सर्ग अपवादसम्बन्धः तत्र अन्य किमपि न चिन्तनीयम् अपवादत्वेन अपवादसूत्रस्य विधानम् एव भवति तावत् स्पष्टमिति चिन्तयामि अग्रे सरामः इदानीं किं त्रयाण त्रिषु सूत्रेषु लोपो व्योर्वलि इति सूत्रं तु त्यजामः चक्षुः शृणुनाचिके च इति सूत्रं लोपो व्योर्वलि इति सूत्रस्य अपवादसूत्रत्वेन चक्षुः शृणुनाचिके च इति सूत्रं बलवत् भवति अतः लोपो व्योर्वलि इत्यस्य प्रसङ्गः एव अत्र न अपेक्षितः प्रसङ्गमेव न अपेक्षितः इदानीं चक्षुः शृणुनाचिके च पुनः सुगन्तलघुपदस्य च तयोः मध्ये तुलनात्मकचिन्तनं करिष्यामः अस्तु अस्तु अग्रे ज्योति भगिनी कृपया
आं महोदय ततः अग्रे चिन्तनीयं यत् छोवो सुडनुनासिके च षष्ठमध्याये चतुर्थपादे नवादशतम सूत्र पुगन्तलघुपदस्य च सप्तम अध्याये तृतीयपादे षड् अशीतितम सूत्र इत्यनयोर्मध्ये किं भवति द्रयोः अपि अन्यत्र लब्धावकाशः द्रयमपि अङ्गकार्यश्च पुगन्तलघुपदस्य च सप्तम अध्याये तृतीयपादे षट् अशीतितम सूत्र इत्यस्य परत्वात् बलवत् स्यात् शिवयोगेन पुगन्तलघुपदस्य च सप्तम अध्याये तृतीयपादे षट् अशीतितम सेव योगेन अत्र सुडनासिके च पुगन्तलघुपदस्य इत्यनयोः मध्ये किं भवति ते चिन्तयित् द्रयो अपि अन्यत्र लब्धावकाश द्वयमपि अङ्गकार्यस्य पुगन्तलघुपदस्य बलवत् भवति इत्यस्य परत्वात् बलवत् स्यात् अत्र पुगन्तलघुपदस्य कार्य कुर्मः तत्र लघुपदस्य तेन स्थानेन कस्य से ए भवति पुगन्तलघुपदस्य शि स्थाने शे कस्य भवति स्थाने
पुगन्तलघुपदस्य च इति सूत्रेण गुणादेशः भवति किल, लघु किम् उपधायां विद्यमानस्य लघु इकवर्णस्य स्थाने गुणादेशः तेन सूत्रेण
भवति तेन कारणेन शे वा योगे न भवति तो तेन कारणेन पुगन्तलघुपदस्य बलवत् भवति
न भगिनि तथा तथा चिन्तनं न क्रियते अत्र अत्र भिन्नचिन्तनम् अपेक्षितम् अस्माभिः अस्तु कृपया म्यूट् मध्ये पृच्छतु अस्तु तर्हि इदानीं किं चिन्तनं कुर्मः चक्षुः सुरनासिके च अपि च पुगन्तलघुपदस्य च द्वयोः सूत्रयोः मध्ये किं सूत्रम् अत्र कार्यं करोति अत्र सूत्रद्वयं पश्यामः चेत् चक्षुः सुरनासिके च इति सूत्रं षष्ठाध्यायस्य चतुर्थपादस्य नवदशतमसूत्रम् षष्ठाध्यायस्य चतुर्थपादे एतत् सूत्रं पठ्यते नाम अङ्गस्य अधिकारे पठ्यते वयं सूत्रचिन्तनसमये अपि पठितवन्तः अङ्गस्य इत्यस्य अधिकारः सत्यम् अङ्गस्य इत्यस्य अधिकारसूत्रस्य सूत्रसङ्ख्या अस्ति षष्ठाध्यायस्य चतुर्थपादस्य प्रथमसूत्रम् पुनः पुगन्तलघुपदस्य च अपि अङ्गस्य अधिकारे पठ्यते अङ्गस्य अधिकार तु सप्तमाध्यायस्य अन्तपर्यन्तम् अङ्गस्य अधिकारः वर्तते तर्हि तत्सः सुरनासिके च पुगन्तलघुपदस्य च द्वयोः सूत्रयोः आधारेण अङ्गकार्यं क्रियते परन्तु लोपविरवलि इति सूत्रं षष्ठाध्यायस्य प्रथमपादस्य षट्षष्ठितमसूत्रम् अङ्गस्य अधिकारे एतत् सूत्रं न पठ्यते लोपविरवलि इति सूत्रं सूत्रेण वर्णकार्यं विधीयते चक्षुः सुरनासिके च अपि च पुरन्तलघुपथस्य च द्वयोः सूत्रयो द्वाभ्यां सूत्राभ्याम् अङ्गकार्यम् अपेक्षितम् एकं बिन्दुः द्वितीयबिन्दुः किमस्ति अत्र वयं पूर्वमेव चिन्तितवन्तः तत्र चक्षुः सुरनासिके च इति सूत्रेण निमित्तानि सूत्रस्य निमित्तानि कानि अनुनासिकादिप्रत्ययः फलादिप्रत्ययः अपि च कीप्रत्ययः पुगन्तलघुपदस्य च इति सूत्रे निमित्तानि सन्ति सर्वे प्रत्ययाः ये प्रत्ययाः धातुभ्यः विधीयन्ते सार्वधातुकार्थधातुकयोः इति पदस्य उपस्थितौ पुगन्तलघुपदस्य च इति सूत्रे सार्वधातुकार्धधातुकयोः इति पदस्य उपस्थितौ तत्र धातुभ्यः विधीयमानाः सर्वे प्रत्ययाः स्वीक्रियन्ते अतः किं तच्छोः सुरनासिके च इति सूत्रे ये प्रत्ययाः निमित्तरूपेण स्वीक्रियन्ते तेषां सर्वेषां ग्रहणं पुगन्तल किं सार्वधातुकार्ध सार्वधातुक पुगन्तलघुपथस्य च इति सूत्रस्य कार्यक्षेत्रे भवति परन्तु अत्र अन्यत् वाक्यमपि स्वरूपमहोदयेन अत्र लिख्यते किम् अतः अस्य सूत्रस्य निमित्तद्वयं भवति तदा एकनिमिषः कुत्र अस्ति द्वयोः अपि अन्यत्र लब्धावकाशः यदि चक्षुः सुरनासिके च इति सूत्रस्य सर्वाणि निमित्तानि पुगन्तलघुपथस्य च इति सूत्रस्य निमित्तसमुदायमध्ये स्वीक्रियते तर्हि अन्यत्र लब्धावकाशः कथं भवति अतः अहं चिन्तयामि किम् इति यः प्रत्ययः अस्ति सः प्रायशः धातुभ्यः न विधीयते तस्य विधानं धातुभिन्ना अन्यस् नामपदेभ्यः प्रायशः भवति अतः तस्य कार्य अन्यत्र प्रसक्ति नाम चक्षुः सुरनासिके च इति सूत्रस्य प्रसक्तिः अन्यत्र वर्तते अनेन कारणेन इति चिन्तयामि यद्यपि तदेव भाति परन्तु स्पष्टतार्थम् अन्वेषणं कृत्वा पुनः अग्रिमवर्गे चिन्तनं करिष्यामि अतः उभयसूत्रस्य प्रसक्तिः अन्यत् किं लब्धावकाशः अन्यत्र अन्यत्र अस्ति. पुगन्तलघुपदस्य च इति सूत्रविषये तु स्पष्टमेव, यतोहि तस्य कार्यक्षेत्रं बृहत् अस्ति. तस्य निमित्तानि कानि? सर्वे प्रत्ययाः, धातुभ्यः विद्यमानः सर्वे प्रत्ययाः. अतः अनुनासिकादिप्रत्ययविहाय, पुनः जलादिप्रत्ययविहाय अन्यत् ये प्रत्ययाः सन्ति तेषां प्रसङ्गे पुगन्तलघुपदस्य च इति सूत्रं कार्यं करोति. अतः तस्य कार्यक्षेत्रं बृहत् अस्ति, तस्य अन्यत्र प्रसक्तिः अस्ति. नाम तत्सह सुडुनाशिके च यत्र प्रसक्तं तेषु भिन्नस्थानेषु पुगन्तलघुपदस्य च सूत्रस्य प्रसक्तिः वर्तते. अतः उभयसूत्रस्य अन्यत्र अन्यत्र प्रसक्तिः अस्ति इति वक्तुं शक्नुमः. पुनः सूत्रसङ्ख्या पश्यामः चेत् पुगन्तलघुपदस्य च इति सूत्रं परसूत्रम्, अतः परत्वात् बलवत्. अनेन क्रमेण चिन्तनम् अग्रे सारयामः. परत्वात् बलवत् इति स्वीकृत्य अदि यदि पुगन्तलघुपदस्य च इत्यस्य विधानं कुर्मः तेन किं भवति? शिव् इत्यस्य उपधायां यः लघु इक् वर्णः अस्ति तस्य स्थाने गुणादेशः भवति. तेन किं भवति? सेप् योगेन इति रूपं भवति, तत्त्वनिष्ठरूपं. तत् इष्टरूपं वा? इष्टरूपं किम् अस्ति ज्योतिभगिनी? इष्टरूपम् अस्ति स्योन, सकार यकार ऊकार अनन्तरं नकार अकार, स्योन इति शब्दः. यदि पुगन्तलघुपदस्य च इति सूत्रस्य विधानं कुर्मः तर्हि रूपं भवति सेव्न इति किञ्चन रूपं भवति, तत्तु अनिष्टरूपम्. तत्न अपेक्षितं तर्हि किं चिन्तनं कर्तुं शक्नुमः. अग्रिम अनुच्छेदे तत् वर्ण्यते, बृहत् अनुच्छेदमस्ति, पठित्वा किमेकं वाक्यं स्वीकृत्य चिन्तनम् अग्रे सारयामः. धन्यवादः भगिनि. अग्रे सरामः. अग्रे पुनः सुचिरा भगिनि. अस्तु, कः प्रश्नः?
मी धातु रिलेटेड् नास्ति, अतः अन्यत्र लब्ध अवकाशः अस्ति. तत्र चोः रिवर्स् प्रोसेस् अन्यत्र लब्ध अवकाशः कथं भवति?
क्षम्यतां भगिनि, पुनः पृच्छतु. किं, कः धातुः नास्ति?
चोः शुडनुनासिके तत्र क्री प्रत्ययः अस्ति. हा, पुगन्तलघुपदस्य च बृहत् क्षेत्र अस्ति, धातोः निमित्तः अस्ति, परन्तु तत्र क्वी नास्ति, अतः अन्यत्र लब्ध अवकाशः अस्ति. तर्हि अन्यसूत्रे लब्ध अवकाशः कथं भवति?
अत्र किं पुगन्तलघुपदस्य च इति सूत्रे किं परनिमित्तं किं? सर्वे सार्वधातुकप्रत्ययाः, सर्वे अर्धधातुकप्रत्ययाः, परन्तु चत्सोः षडुन्नासिके च इति सूत्रे परनिमित्तम् अस्ति अनुनासिकादिप्रत्ययः पुनः झलादिप्रत्ययः. अनुनासिकादिप्रत्ययः झलादिप्रत्ययः विहाय अपि केचन प्रत्ययाः भवन्ति किल? यदि आवली पश्यामः तर्हि तेषां किम् अन्वेषणं कृत्वा वक्तुं शक्नुमः के प्रत्ययाः अनुनासिकादिभिर्नः अपि च झलादिभिर्नः. अनुनासिकादिभिर्न झलादिभिर्न प्रत्ययः परे विद्यते चेत् तत् पुगन्तलघुपदस्य च सूत्रस्य प्रसक्तिः अस्ति, अतः तस्य सूत्रस्य प्रसक्तिः अन्यत्र अस्ति. पुनः तत्सः षडुनासिकस्य इति सूत्रस्य क्वि प्रत्यय प्रसङ्गे तस्य प्रसक्तिः अस्ति, अतः तस्य अपि अन्यत्र प्रसक्तिः अस्ति. स्पष्टमिति
समीचीनः प्रश्नः अस्तु, धन्यवादः भगिनि. सुस्थिरा भगिनि.
अधुना अस्मिन् विषये इतोपि चिन्तनीयं. शिवयोगे न इति स्थितौ छोः षूड् नुनासिके च षष्ठाध्याये चतुर्थपादः एकोनविंशतितमसूत्रम् इत्यस्य कति निमित्तानि? वकारान्तमङ्गं स्यात्, अपि च अनुनासिकादि प्रत्ययः परः स्यात्, अतः अस्य सूत्रस्य निमित्तद्वयं भवति. तदा अत्रैव शिवयोगे न इति स्थितौ पुगन्तलघुपदस्य पुगन्तलघुपदस्य च षष्ठ सप्ताध्याय तृतीयः पादः षडशीतितमसूत्रम् इत्यस्य कति निमित्तानि? अङ्गम् इक्लक्षणा लघ्वी उपधा आर्धातुकप्रत्ययः इत्यनेन पञ्चनिमित्तानि, नाम पञ्चसंज्ञाः अपेक्षिताः. अङ्गसंज्ञा, इक्संज्ञा, लघुसंज्ञा, उपधासंज्ञा, आर्धातुकसंज्ञा, पुगन्तलघुपदस्य च सप्ताध्याय तृतीयपादः षडाशीतितमसूत्रम् इत्यस्य अपेक्षया छोः षूड्नुनासिक च इत्यस्य अल्पनिमित्तकत्वं भवति. तदर्थम् अनया दृष्ट्या छोः षूड्नुनासिके षष्ठाध्याय चतुर्थपादः एकोनविंशतितमसूत्रम् अन्तरङ्गम्, पुगन्तलघुपदस्य च सप्ताध्याये तृतीयपादः षडशीति तमसूत्रं च बहिरङ्गम् इति कैयटः नाम्ना प्राचीनवैयाकरणस्य मतम्. अधुना अस्मिन् विषये शिवयोगे न स्थितौ शोः शूड् नुनासिके च इत्यस्य वयं पठितवन्तः. निमित्तानि त्रयं सूत्रे पठिता, अत्र तु निमित्तं द्वयमपि भवति. आदौ वकारान्त अङ्गम्, अन्ते वकारः अस्ति चेत् परे यः प्रत्ययः अस्ति सः प्रत्ययः अनुनासिक, तस्य आदौ अनुनासिकवर्णः अस्ति चेत् निमित्तद्वयमस्ति. वकारान्तमङ्गम्, आदौ अनुनासिकवर्णः, अतः अस्य सूत्रस्य निमित्तद्वयं भवति. तदा अत्रैव शिवयोगे न इति स्थितौ पुगन्तलघुपदस्य च इति तस्य कृते पञ्च निमित्तानि, पञ्चनिमित्तानि सन्ति. अङ्गम् एकवर्णः, उपधा लघु एकवर्णः, आर्धातुकप्रत्यये परे आर्धातुकप्रत्यये भवेत् एव, अङ्गकार्यं, पञ्चनिमित्तानि अपेक्षितम् अत्र. पुगन्तलघुपदस्य च तस्य कृते पञ्चनिमित्तानि सन्ति. छोः षूड्नुनासिके षूड्नुनासिके च इत्यस्य तस्य कृते निमित्तं द्वये अस्ति. तो अत्र अल्पं निमित्तं यस्य सूत्रस्य तत् निमित्तम् अन्तरङ्गम्, यस्य निमित्तम् अधिकमस्ति तत् सूत्रं बहिरङ्गम् इति कैयट् नाम्नः वैयाकरणस्य मतम् अस्ति.
अनुच्छेदं किं तत्र ये बिन्दवः सन्ति महत्त्वपूर्णबिन्दवः, सरलतया अत्र वर्ण्यते, परन्तु स्पष्टतार्थं वारं वारं पठनीयम् एव. तर्हि अत्र पुगन्तलघुपदस्य च इति सूत्र अपेक्षया तच्छः सुडर्मासिके च इति सूत्रम् अन्तरङ्गम्, द्वयोः मध्ये पुगन्तलघुपदस्य च तच्छः सुडर्मासिके च द्वयोः मध्ये
चक्षुः शुरुनासिक च इति सूत्रम् अन्तरङ्गं भवति केन कारणेन चक्षुः शुरुनासिके च इति सूत्रप्रसङ्गे किं निमित्तं द्वयमपेक्षितम् अकारान्तम् अङ्गम् अनुनासिकादि तावदेव निमित्तद्वयमपेक्षते किन्तु पुगन्तलघुपथस्य च इति सूत्रप्रसङ्गे तत्र निमित्तपञ्चकम् अपेक्षितं कथं तत्र दीयते अङ्गसंज्ञा तु अपेक्षते एव पुगन्तलघुपथस्य च इति सूत्रेण अङ्गकार्यं निर्दिष्टं पुनः कीदृशम् अङ्गं लघुपथ अङ्गं तादृशम् अङ्गं यस्य उपधायां कश्चन लघु लघु स्वरः विद्यते पुनः तस्मिन् सूत्रे गुणस्य गुणकार्यं निर्दिष्टम् अतः सः लघु स्वरः कश्चन इक्तुवर्णः भवेत् अतः किम् अङ्गसंज्ञा अपेक्षितम् इक्संज्ञा अपेक्षितं पुनः लघुसंज्ञा अपेक्षितम् लघुसंज्ञा अपेक्षितं पुनः उपधासंज्ञा अपि अपेक्षितम् परे प्रत्ययः तु आर्धधातुकप्रत्ययः अथवा सार्वधातुकप्रत्ययः अत्र अस्ति वियोगे न इति अवस्थायाम् आर्धधातुकप्रत्ययसंज्ञा अपेक्षितम् अतः गन्तलघुपथस्य च इति सूत्रस्य सूत्रप्रसङ्गे पञ्चनिमित्तानि निमित्तपञ्चकम् अपेक्षितम् किन्तु चक्षुः शुरुं नास्ति चेत् इति सूत्रप्रसङ्गे निमित्तद्वयमेव अपेक्षते अतः चक्षुः शुरुं नास्ति चेत् अल्पनिमित्तकत्वं तेन तत्सूत्रम् अन्तरङ्गम् कस्य मते कयटस्य मते अनया रीत्या अत्र चक्षुः शृणुनासिके च इति सूत्रम् अन्तरङ्गम् इति निर्णयं तेन तस्य विधानं भवति तस्य विधानेन स्योन इति कथं निष्पादनं कर्तुं शक्नुमः तस्य सोपानेन चिन्तनं करिष्यामः अस्तु अस्माकं बिन्दुः अस्ति किम् अन्तरङ्गत्वं किं पूर्व उपस्थितनिमित्तकत्वम् अन्तरङ्गम् इत्यस्मिन् बिन्दौ एव प्रथमे निर्णयं क्रियते अल्पनिमित्तकत्वम् अन्तरङ्गम् किञ्चित् भिन्ना अस्ति अग्रे स्पष्टं भवति इदानीं वयं किं निर्मितवन्तः तत्र सिप् योगे न इति अवस्थायां त्रयाणां सूत्राणां प्रसक्तिः तानि कानि लोपो व्योर्वलि चक्षुः शृण्नासिके च पुनः गन्तलघुपथस्य च तेषु लोपो व्योर्वलि चक्षुः शृण्नासिके च तयोः मध्ये चक्षुः शृण्नासिके च इति अपवादत्वेन अवलवत् अतः लोपो व्योर्वलि इति सूत्रस्य प्रसक्तिः वार्यते तत्र तस्य प्रसङ्गः न भवति पुनः गन्तलघुपथस्य च चक्षुः शृण्नासिके च तयोः मध्ये चक्षुः शृण्नासिके च इति अन्तरङ्गं भवति अल्पनिमित्तकत्वम् आधारेण चक्षुः शृण्नासिके च सूत्रस्य विधानं भवति इदानीं तस्य सूत्रस्य विधानेन स्योन इति इष्टरूपं कथं साधयितुं शक्नुमः तच्चिन्तनं कुर्मः सरलमस्ति कोऽपि प्रयत्नं करोति वा
वकारस्य स्थाने उकारः आदेशः भवति चोव चूडनशिके वकारस्य स्थाने उड् आदेशः अत्र हलन्द्यं सूत्रेण डकारस्य संज्ञा भवति उ अवशिष्यते सि उ इति भवति अनन्तरं योगः आर्धधातुकप्रत्ययः नकारः अतः गुणः भवति न न सि इ योगः वकारः अत्र इको एणचि सूत्रं कार्यं करोति ईयोगः स्यु से इति भवति अर्जुने से इति यकारः से योगः न सि ईयोगः ईयोगः उ वकारः अनन्तरं स्वेन
अस्तु अस्तु प्रथमसोपाने तु किं बकारस्य स्थाने उठ् इति आदेशः भवति उठ् इति आदेशस्य अन्त्यठकारस्य इत्संज्ञा भवति उ एव उ इत्यस्य विधानं भवति अस्तु बकारस्य स्थाने उ भवति इदानीं क्रमः भवति सकार इकार उकार अनन्तरं न अस्तु इकार परे उकार इकार इति इक् वर्ण तस्य परे उकार इति कश्चन अच् वर्ण तेन इक्को यणति इति सूत्रेण इकारस्य स्थाने यकार भवति अस्तु सकार यकार उकार स्यु स य उ अस्तु स्यु इति भवति इदानीं किं सकार यकार उकार इति इत्यनेन यत् अङ्गमस्ति तस्य परे न इति कश्चन अर्धधातुकप्रत्ययः सार्वधातुकार्धधातुकयोः इत्यनेन गुणः भवति अन्त्य उकारस्य स्थाने ओकार भवति सकार यकार ओकार स्यो न स्पष्टम् स्पष्टमिति चिन्तयामि धन्यवादः भगिनी अग्रे सरामः इदानीम् अग्रिम अनुच्छेदमस्ति अत्र महोदय तस्य क्रमः रामचन्द्रन् महोदय
अत्र प्रथमतया तदेव महोदय अत्र प्रथमतया अन्तरङ्गस्य प्रसङ्गे निमित्तं नाम किमिति निश्चेतव्यम् अर्थकृतनिमित्तं वा संज्ञाकृतनिमित्तं वा शब्दकृतनिमित्तं वा इति ज्ञेयम् अस्मिन् विषये च महती चर्चा भवति अत्र अन्ततो गत्वा नागेशः इति नवीनवैयाकरणस्य मतम् अद्यत्वे स्वीक्रियते तस्य मतं तु भाष्यकारस्य पतञ्जलेः एव इति अङ्गीकारः नाम यथा नागेशस्य चिन्तनं तथैव भाष्यकारस्य अपि भाष्यकारस्य चिन्तनं किं किमर्थं तथा च इत्यपि नागेशः प्रदर्शयति यदा अत्र निमित्तविषये अन्तरङ्गविषये कया दृष्ट्या इति चिन्तनं करणीयं नाम निमित्तं तत्र बहुविधम् अस्ति तत्र अर्थकृतनिमित्तं संज्ञाकृतनिमित्तं शब्दकृतनिमित्तम् इति तत्र कस्मिन् विषये कीदृशम् अनिमित्तमिति ज्ञातव्यम् तत्र नागेशभट्टः नाम नवीनवैयाकरणः तस्य मतं यदस्ति तदेव भाष्यकारस्य मतमपि अस्ति सः यत् नागेशभट्टेन प्रदर्शितं तदेव भाष्यकारस्य पतञ्जलेः अपि मतम् अथवा चिन्तनम्
सत्यं सत्यं तर्हि अत्र निमित्तानां प्रसङ्गे तेषां भेदत्रयं वर्तते इति अत्र दीयते किम् अर्थकृतनिमित्तं संज्ञाकृतनिमित्तं शब्दकृतनिमित्तं तानि कानि अग्रे स्पष्टं भवति उदाहरणमपि अस्ति चिन्ता मास्तु उदाहरणं स्वीकृत्य अपि चिन्तनं करिष्यामः अर्थकृतनिमित्तं नाम किं संज्ञाकृतनिमित्तं नाम किं शब्दकृतनिमित्तं नाम किं पुनः अस्मिन् विषये महति चर्चा भवति अत्र अन्ततो गत्वा नागेशः इति नवीनवैयाकरणस्य मतम् अद्यत्वे स्वीक्रियते तस्य मतं तु भाष्यकारस्य पतञ्जलेः एव इति अङ्गीकारः नाम यथा नागेशस्य चिन्तनं तथैव भाष्यकारस्य अपि भाष्यकारस्य चिन्तनं किं किमर्थं तथा च इत्यपि नागेशः प्रदर्शयति अग्रे तत्सर्वं चिन्तनं करिष्यामः तत्र नागेशः नवीनवैयाकरणः पतञ्जलिः तु महर्षिपतञ्जलिः महाभाष्यकारः वयं सर्वे जानीमः अपि च योगशास्त्रस्य स्रष्टा पतञ्जलेः विषये किं सः शेषनागस्य स्वरूपमिति स्वीक्रियते नागेशस्य विषये एतद् उच्यते तत्र नागेशः तु किं वर्तमानकालिकः सप्तदश शताभ्याम् एव तस्य विद्यमानता स्वीक्रियते पतञ्जलिः तु प्रायशः द्विसहस्रवर्षप्राक् वर्तते परन्तु तत्र नागेशस्य विषये एतत् उच्यते स्वयं पतञ्जलिः नागेशस्य मुखेन सिद्धान्तानां वर्णनं करोति इति व्याकरणजगते स्वीक्रियते उभयस्य प्रसङ्गे अत्र पश्यामः चेत् वयं तु जानीमः पतञ्जलिः शेषनागस्य अवतारः पुनः नागेशस्य नाम एव तस्य निर्देशं करोति यत्किमपि भवतु तादृशी ग्रहणं व्याकरणजगते जगति वर्तते वयं किं तत्र परिभाषेन्दुशेखरः अथवा नागेशस्य ये ग्रन्थाः सन्ति अपि च अन्येषु स्थलेषु अपि एतादृशं ग्रहणं वर्णीयते यत्किमपि भवतु अग्रेसरामः सारांशः इत्यतः सत्तानुच्छेदं स्वीकृत्य पठामः अग्रे तस्य क्रमः इदानीं नेहा भगिनी भगिन्याः आम् नेहा भगिनी कृतः
सारांशः अत्र उच्यते व्याकरणशास्त्रं शब्दशास्त्रमेव व्याकरणशास्त्रं शब्दशास्त्रमेव नाम व्याकरणशास्त्रे शब्दस्य प्राधान्यं शब्दः नाम कः वर्णः पदं चेत्ति यस्य ध्वनिः भवति अथवा यः ध्वनिः एव अस्ति अर्थः तस्माद् भिन्नः संज्ञा च तस्माद् भिन्ना शब्दः अर्थवान् भवति अर्थविशिष्टः भवति अतः अर्थः शब्दस्य विशेषणं शब्दः एव विशेष्यः स च शब्दः व्याकरणस्य प्रमुखविषयः तदर्थम् असिद्धं बहिरङ्गम् अन्तरङ्गे इति परिभाषायाम् अङ्गशब्देन शब्दरूपीनिमित्तस्य ग्रहणं तात्पर्यम् एवं यत् अन्तरङ्ग बहिरङ्गम् इत्यनयोः अङ्गशब्देन शब्दरूपीनिमित्तं
स्वीक्रियते। अत्र सारांशरूपेण वदति तत्र त्रिनिमित्तकं त्रिप्रकारेण निमित्तकम् अस्ति अर्थसंज्ञा शब्द। तर्हि व्याकरणशास्त्रं मन्यते चेत् शब्दशास्त्रम् एव अस्ति। शब्दः इति किमपि उच्चारणं यदा भवति तदा यः ध्वनिः वयं शृणुमः तदपि शब्दः भवति, ध्वनिः एव अस्ति। अतः शब्दः यदि अर्थवान् भवति तर्हि तस्य अर्थः विशिष्टः एवं मन्यते। अतः यदा वयं कोऽपि शब्दः शृणुमः तत् तत् शब्दः अर्थयुक्तः भवितुमर्हति। अतः शब्दः व्याकरणशास्त्रे मुख्य अस्ति। परन्तु महोदय मम अत्र संशयः अस्ति, अत्र अर्थकृतनिमित्तः अस्ति अपि च अत्र मन्य चिन्तयन्ति शब्दः प्रमुखविषयः अस्ति, तत्र शब्दः प्रमुखः अस्ति वा अर्थः प्रमुखः अस्ति?
व्याकरणशास्त्रमस्ति शब्दशास्त्रम्, अतः व्याकरणे शब्दस्य प्रामुख्यम्। आम् एतद् अनुच्छेदम् अत्यन्तमहत्त्वपूर्ण अनुच्छेदमस्ति। किम् अन्तरङ्गत्वम् अथवा अस्मिन् करपत्रे एतदेव अनुच्छेदम् अत्यन्तमहत्त्वपूर्ण गुरुत्वपूर्ण अनुच्छेदम् इति चिन्तयन्तु। तत् अनुच्छेदं वारं वारं पठित्वा अत्र किं वर्ण्यते तत् अवगन्तुं प्रयत्नं कुर्वन्तु। यद्यपि सरलभाषया वर्ण्यते तथापि केचन गुरुत्वपूर्णसिद्धान्तः अत्र वर्ण्यते। एकमेकं वाक्यं स्वीकृत्य चिन्तनं कुर्मः। सारांशः अत्र उच्यते, व्याकरणं व्याकरणशास्त्रं शब्दशास्त्रमेव, नाम व्याकरणशास्त्रे शब्दस्य प्राधान्यम्। अस्तु, ध्येयवाक्यम् इति स्वीकरोतु, व्याकरणशास्त्रं शब्दशास्त्रं सप्तम् अनुसृत्य अत्र यत्किमपि विधानं भवतु, यत्किमपि निर्दिश्यते सप्तम् अनुसृत्य एव, सप्त आधारेण एव निर्देशः। सप्तः नाम कः? सप्तः इति वदामः चेत् वर्णः पदं चेति यस्य ध्वनिः भवति अथवा यः ध्वनिः, अस्तु शब्दः इति वदामः चेत् स्वयं ध्वनिः साउण्ड्, आङ्ग्लभाषया वदामः चेत् साउण्ड् इत्यस्य किं संस्कृत अर्थः अस्ति शब्दः किल। पुनः शब्दः इति वदामः चेत् एतदेव शब्दं स्वीकृत्य चिन्तनं कुर्मः, तालव्यसकारः, अकारः, वकारः, नकारः, अकारः, विसर्गः, एतेषां वर्णानां मेलनेन यत् समूहं लभ्यते तदेव शब्दः, तस्य पुनः अर्थः अस्ति। शब्दः इति वदामः चेत् तस्य कश्चन अर्थः विद्यते किल। अस्तु, अतः किं वर्ण शब्दः नाम कः? वर्णः पदं चेति यस्य ध्वनिः भवति अथवा यः स्वयं ध्वनिः एव अस्ति। स्वयं ध्वनिः तु वयं जानीमः, अर्थः तस्मात् भिन्नः। सप्तः इति स्वीकृत्य वयं चिन्तनं कुर्मः चेत् सकार, अकार, वकार, दकार, अकार, विसर्गः, तेषां समुच्चयः शब्दः, पुनः तस्य कश्चन अर्थः अस्ति, अतः शब्दात् अर्थः भिन्नः। अस्तु, पुनः संज्ञा च तस्मात् भिन्नः, शब्दः इति वदामः चेत् तत्तु कश्चन भिन्नः पुनः तस्य अर्थः भिन्नः पुनः संज्ञा इतोपि भिन्नः अतः शब्दः वदामः चेत् सः कः तस्य कः अर्थः पुनः यदि संज्ञा अस्ति सर्वदा संज्ञा भवितुम् अर्हति तथा न यदि संज्ञा अस्ति सा का अस्तु त्रयाणां भिन्नभिन्न किं स्वभावः अथवा सत्त्वता इति वक्तुं शक्नुमः शब्दस्य भिन्नसत्त्वम् अर्थस्य भिन्नसत्त्वं पुनः संज्ञायाः अपि भिन्नसत्त्वम् इति वक्तुं शक्नुमः उदाहरणं स्वीकृत्य चिन्तनं कुर्मः चेत् स्पष्टं भवति उदाहरणं स्वीकृत्य चिन्तनं करिष्यामः प्रथमे एतत् अनुच्छेदं पठामः शब्दः अर्थवान् भवति अर्थविशिष्टः भवति अतः अर्थः शब्दस्य विशेषणं शब्द एव विशेष्यः स च शब्दः व्याकरणस्य प्रमुखविषयः तदर्थम् असिद्धं बहिरङ्गम् अन्तरङ्गे इति परिभाषायाम् अङ्गशब्देन वयं पूर्वं चिन्तितवन्तः अस्मिन् प्रसङ्गे अङ्गं नाम निमित्तम् असिद्धं बहिरङ्गे असिद्धं बहिरङ्गम् अन्तरङ्गे इति परिभाषायाम् अङ्गशब्देन सप्तरूपीनिमित्तस्य ग्रहणम् तात्पर्यम् एवं यत् अन्तरङ्गं बहिरङ्गम् इत्यनयोः अङ्गशब्देन सप्तरूपीनिमित्तं स्वीक्रियते तत् सप्तरूपीनिमित्तं किम् अग्रे स्पष्टं भवति चिन्ता मास्तु इदानीं सप्तः पुनः शब्दस्य अर्थः पुनः शब्दस्य यदि काचित् संज्ञा अस्ति तेषां भिन्नता किम् एकम् उदाहरणं स्वीकृत्य चिन्तनं कुर्मः समयः तु समाप्तः अद्य चिन्तनं कुर्मः अथवा अग्रिमसप्ताहे चिन्तनं कुर्मः भवन्तः किं चिन्तयन्ति रामचन्द्रन् महोदय आमाम् एतत् परिच्छेदमेव समापयित्वा समापनं करिष्यामः तर्हि एकम् अस्माकं परिचितं शब्दं स्वीकुर्मः आम्रम् इति स्वीकरोतु अस्तु आम्रम् इति यत् शब्दमस्ति तस्मिन् वर्णसमुच्चयः एव शब्दः आकारः दीर्घ आकारः मकारः रेफः ह्रस्वकारः पुनः मकारः एतेषां वर्णानां समुच्चयः यत् आम्रं तत्तु शब्दः सत्यम् इदानीं तस्य संज्ञा संज्ञा किं किम् आम्रम् इति किञ्चन फलम् अस्ति अस्तु साक्षात् आम्रं संज्ञी अस्ति आम्रं यत् पदं संज्ञा संज्ञी इत्यस्य संज्ञा अस्ति आम्रम् इति उच्चारणं कुर्मः चेत् तत्र यत् वर्णसमुच्चयः अस्ति तत्तु शब्दः अस्ति स्पष्टं प्रथमबिन्दु द्वितीयबिन्दु किं तत्र आम्रम् इति उच्चार्यमाणे किञ्चन फलम् अस्ति तत् फलं संज्ञी भवति यत् संज्ञी भवति तस्य संज्ञा अस्ति आम्रम् इति पदम् अस्तु अतः आम्रम् इति वदामः चेत् शब्दः कश्चन भिन्नः इदानीं स्पष्टं वर्णसमुच्चयः शब्दः तस्य संज्ञा अस्ति आम्रं किञ्चन फलम् अस्तु यत् फलम् अस्ति तत् संज्ञी अस्ति अस्तु तस्य अर्थः अस्ति किञ्चन फलम् अस्तु त्रयाणां भेदः इदानीं स्पष्टं वा अर्थः कः शब्दः कः पुनः संज्ञा का भगिनी नेहा भगिनी
आं महोदय, धन्यवादः, स्पष्टं भवति.
शब्दः कः वदतु?
शब्द इत्युक्ते वर्णानां समूहः. अत्र आम्रं शब्दे अकार आकार मकार रेफ पर पुनः मकार एतत् सर्वे वर्णानां समूहः अस्ति. आम्रं शब्दः तत् आम्रम् इति फलं कृते तस्य फल इति संज्ञेय अस्ति. आम्रं तत् फलस्य संज्ञा अस्ति.
अपि च धन्यवादः भगिनि, इदानीम् अत्र समापयामः. भवत्येव समापयतु भगिनि.
आम्. ॐ पूर्णमदं पूर्णमिदं पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते. ॐ शान्ति शान्ति शान्तिः. गुरुभ्यो नमः. हरि ओम्. धन्यवादः महोदय.
धन्यवादः महोदय.
धन्यवादः.